इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य प्रातः 11 वादने आकाशवाणीतः मन की बात इति कार्यक्रमे स्वीयं मनोगतं प्रकटयिष्यति। मासिकस्य आकाशवाणी कार्यक्रमस्य एतत् 34.1 शततमं संस्करणं भविष्यति। आकाशवाण्याः दूरदर्शनस्य च सर्वाभिः वाहिनीभिः अस्य कार्यक्रमस्य प्रसारणं भविष्यति। अयं हि आकाशवाणी वार्ता विभागस्य अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अपि च newsonair इति चलदूरभाषीये तन्त्रांशे अपि उपलब्धः भविष्यति। आकाशवाणी दूरदर्शन प्रधानमन्त्री कार्यालय सूचना प्रसारण कार्यालयानां यूट्यूब वाहिनीभिः अपि अस्य कार्यक्रमस्य साक्षात् प्रसारणं भविष्यति। हिन्दीभाषायां प्रसारणस्य अनन्तरम् आकाशवाण्याम् अस्य प्रसारणं क्षेत्रीयासु भाषासु अपि भविष्यति। विदेशमन्त्री डॉ एस जयशंकरः गतसायं म्यान्मारदेशस्य राष्ट्रपतिना यू मिन आंग लाइंग इत्यनेन सह मेलनं कृतवान्। सामाजिकान्तर्जालीये पटले डॉ जयशंकरः दीर्घकालं यावत् द्वैपाक्षिकं सहकारं सुदृढं कर्तुं म्यान्मारदेशस्य राष्ट्रपतेः सकारात्मकभावस्य प्रशंसाम् अकरोत्। सः अवदत् यत् सः शान्तेः प्रगतेः समृद्धेः च सहभागित्वम् इतोपि सुदृढं कर्तुं प्रधानमन्त्रिणा नरेन्द्रमोदिना सह श्रीह्लाइंगवर्यस्य मेलनस्य प्रतीक्षायाम् अस्ति। उभयोः देशयोः मध्ये ऐतिहासिकानां सभ्यतानां च सम्बन्धान् दृढीकरणाय राष्ट्रपतिः श्वः प्रधानमन्त्रिणा नरेन्द्रमोदिना सह चर्चिष्यति। पूर्वं ह्यः म्यान्मारदेशस्य राष्ट्रपतिः बिहारस्य गयायां गत्वा महाबोधि मन्दिरे प्रार्थनां कृतवान्। अवधेयं यत् राष्ट्रपतिः ह्लाइंगः 5 दिवसीय भारतयात्रायाम् अस्ति। दिल्ल्यारक्षिबलस्य विशेष प्रकोष्ठेन पाक आईएसआई मुंबई अंडरवर्ल्ड्स जालेत्यस्य आदेशेन कार्यं कुर्वन्तः 8 अभियुक्ताः निगडिताः। वार्ताहरान् संबोधयन् दिल्ल्यारक्षिबलस्य विशेष प्रकोष्ठस्य विशेष सीपी अनिल शुक्लः अवदत् यत् अभियुक्ताः दिल्लीनगरस्य महत्वपूर्णस्थानेषु सुरक्षाकर्मचारिषु च आक्रमणं कर्तुं नियुक्ताः आसन्। सः अवदत् यत् तैः सह शस्त्राणि विस्फोटकानि च प्राप्तानि सन्ति। श्रीशुक्लः सूचितवान् यत् अभियुक्ताः सीमापार निर्वाहकानां निर्देशानुसारं कार्यं कुर्वन्तः आसन्। ते दिल्ली महाराष्ट्र पुणे नगरेभ्यः निगडिताः। बैडमिंटन क्रीडायां सिंगापुर ओपन टूर्नामेंट इति स्पर्धायां भारतस्य सात्विक साईराज रंकीरेड्डी चिराग शेट्टी इत्यनयोः युगलं निर्णायक चक्रे प्रविष्टम्। उपान्त्यचक्रे भारतीय दलेन दक्षिण कोरिया दलं पराजितम्। महिलानाम् अन्ताराष्ट्रिय 20-प्रति 20 द्वितीया क्रिकेट क्रीडायां भारत इंग्लैंड दलयोः मध्ये गत सायं जातायां स्पर्धायां इंग्लैंड दलेन भारतं 26 धावनांकैः पराजितम्। आईपीएल क्रिकेट क्रीडायां गुजरात टाइटन्स दलम् अद्य अहमदाबादस्य नरेन्द्र मोदी क्रीडांगणे निर्णायक स्पर्धायां रॉयल चैलेंजर्स बेंगलुरु दलेन सह स्पर्धिष्यति। स्पर्धायाः आरम्भः सायं 7:30 भविष्यति। प्रियाः श्रोतारः, संस्कृत जगता सम्बद्धैः विभिन्नैः क्रियाकलापैः संवलितस्य संस्कृत साप्ताहिकी ते विशिष्ट कार्यक्रमस्य प्रसारणं आकाशवाण्याः एफएम गोल्ड प्रवाहिकातः अद्य रविवासरे मध्याह्ने 12:30 भविष्यति। भवन्तः सर्वे श्रोतुं प्रभवन्ति। इति वार्ताः।